नमस्कारः सर्वेभ्यः अस्माकं द्वितीयगणे न्यायवर्गे सर्वेषां स्वागतम् अस्माकं चर्च्यमानः विषयः अस्ति भेदः पृथक्त्वं च तयोः कः विशेषः इति शीर्षकः अस्ति अस्मिन् विषये गते वर्गे किञ्चित् पठितं तद् आधारीकृत्य अद्य हेग्डे महोदयस्य उपस्थापनं भविष्यति खलु महोदय
आम् महोदय आम्
अस्तु कृपया भवान् वदतु
नमस्कारः महोदय नमः सर्वेभ्यः गतकक्षायां वयं पृथक् व्यवहार असाधारणकारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति विषये पठितवन्तः पृथक् इति ज्ञानस्य विषयः सर्वेषु द्रव्येषु भवति घट पटात् पृथक् आत्मा आकाशात् पृथक् मनः कालात् पृथक् इत्यादि ज्ञानानि सन्ति अतः अयं गुणः नवद्रव्यवृत्ति एतस्य ज्ञानस्य आधारेण एव कश्चित् वदति घटः पटात् पृथक् एतत् श्रुत्वा श्रोतु मनसि घटविशेष्यपृथक्त्वप्रकारकज्ञानम् उत्पद्यते इत्युक्ते घट इति विशेषं घटे विशेषता वर्तते पृथक्त्वम् इति प्रकारता पृथक्त्वे पृथक्तत्वं वर्तते ज्ञानस्य आकारः भवति घटत्वावच्छिन्नविशेषतानिरूपितपृथक्तत्वावच्छिन्नप्रकारतानिरूपकज्ञानम् सम्पूर्णलक्षणवाक्यम् एवं भवति घटत्वावच्छिन्नविशेषतानिरूपितपृथक्तत्वावच्छिन्नप्रकारतानिरूपकज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयपृथक्त्वं तादृशकारणताश्रयत्वं पृथक्त्वस्य लक्षणम् एतद् चित्ररूपेण विद्याधर्यां प्रदर्शितमस्ति पृथक्त्वविषये प्राचीननैयायिकानां मतमस्ति पृथक्त्वम् इति भिन्नः भेद इति भिन्नः परन्तु नवीननैयायिकाः वदन्ति द्वयमपि समानम् एतस्य विषये किञ्चित् चर्चामपि वयं गतकक्षायां कृतवन्तः भेदस्य पृथक्त्वस्य च को विशेषः घटपटन घटपटात् भिन्नः इत्यादिप्रयोगे अन्योन्याभावः दृश्यते अन्योन्याभावः तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिताक अभावः रूपं साधयति अभावरूपमिति नवद्रव्यवृत्ति रूपं न घटः इति ज्ञानेन रूपे घटाभावः अस्ति इति एव सिद्ध्यति तथैव उत्पेक्षणं न पटः घटत्वं पटत्वात् भिन्नं एतद्विशेषं तद्विशेषात् भिन्नं समवायि न संयोगः घटाभावः न पटाभावः इत्यादि ज्ञाने अभावस्य क्रियादिगुणेषु अपि वृत्तित्वं सिद्ध्यति तथा भेद अथवा अन्यन्नाभावः सर्वत्र इत्युक्ते सर्वद्रव्येषु अनन्तरं सर्वपदार्थेषु वर्तते परन्तु पृथक्त्वं घटपटात् पृथक् इति विषयः द्रव्ये एव भवति न तु गुणादौ गुणसमवायसम्बन्धेन द्रव्ये भवति इति वयं प्राक् पठितवन्तः किमपि कारणं विना पृथक्तरूपम् इति कार्यं कथं गुणे उत्पादितुं शक्नुमः कोऽपि रूपं घटात् पृथक् इति वदति चेदपि तत्र आशयः भवति केवलं रूपे घटभेदः वर्तते इति एव पृथक्त्वम् अन्योन्याभावात् विलक्षणम् इति मनसि निधाय एव ग्रन्थकारेण उक्तं नवद्रव्यवृत्तिः इति इत्युक्ते केवलं द्रव्ये एव भवति भवितुमर्हति न तु गुणेषु वा अन्ये पदार्थेषु वा अत्र एकभेदं सूचितमस्ति भेद अनन्तरं पृथक्तत्वमध्ये भेद सर्वद्रव्य सर्वपदार्थवृत्तिः पृथक्त्वं केवलं सर्वद्रव्यवृत्तिः तावत् वयं पठितवन्तः महोदय धन्यवादः
समीचीनमस्ति धन्यवादः किञ्चित् किञ्चित् न्यूनपरिष्कारः यत् क्रियागुणेषु इति भेदः इति भवता उक्तं वा इति न स्मरामि इत्युक्ते क्रियादिपदार्थेषु अपि भेदः अस्ति अभावे सामान्ये विशेषे भेदः तत्रापि अस्ति द्रव्यभिन्न पदार्थेषु अपि भेदः अस्ति किन्तु पृथक्त्वं केवलं नवद्रव्ये अस्ति द्रव्यं विहाय अन्यत्र नास्ति इति
अहं क्रियादिगुणमिति लिखितवान् समीकरोमि महोदय
अन्यत् सर्वं समीचीनमस्ति कस्यापि प्रश्नः अस्ति वा अस्मिन् यद् महोदयेन उक्तं समीचीनम् उक्तम् अस्तु अग्रे पठामः तत्र किं सप्तनवतितमे पुटे द्वितीयपरिच्छेदं पठितं वा एतद् लक्षणे असाधारणं कारणम् इति
न न पठितं महोदय.
अस्तु, तत्र अनिलं भगिनी पठति वा?
अहं पठामि महोदय. अत्र अस्ति भेदः एव पृथक्त्वं भेदः एव पृथक्त्वम् इति आक्षेपस्य निराशः.
तत्पूर्वं भगिनि, तत्पूर्वं परिच्छेदम्. एतद् लक्षणे असाधारणम् इति न पठितं खलु?
तत् न पठितं
पुनः न पठितं चेत् एकवारं पठतु, प्रथमवारं पठतु, नो चेत् पुनः पठतु.
एतत् लक्षणे असाधारणं कारणम् इति निर्देशः कृतः. किं तेन ज्ञायते? साधारणकारणात् भिन्नं कारणम्. किं साधारणकारणं? यत् सर्वं कार्यं जनयितुम् आवश्यकम्, यथा पूर्वोक्तः प्रागभावः. न हि तेन विना किञ्चित् कार्यं जायते, अतः सः साधारणकारणं. तद्भिन्नम् असाधारणं यत् कार्यविशेषम् एव जनयति, न सर्वं कार्यं. यथा कपालः घटम् एव जनयति, तन्तु पटम् एव. प्रकृतेः अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति, परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति, अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति. विशेषस्तु अग्रे वक्ष्यते. तत्र पूर्वे दृष्टं, तत्र यः पृथक्त्वम् इति गुणः अस्ति सः तस्य नवद्रव्यवृत्तिः, परन्तु यः भेदः सः भेदः इत्यत्र सर्वत्र अस्ति. द्रव्येषु अपि अस्ति, पदार्थेषु अपि अस्ति. सर्वपदार्थवृत्ति यः भेदः, तस्मात् अस्य वैलक्षणं सूचितम्. एतत् लक्षणे असाधारणं कारणम् इति निर्देशः कृतः.
कस्मिन् लक्षणे?
भेदस्य लक्षणं वा?
न, पृथक्त्वस्य लक्षणे, पूर्वस्मिन् पुटे पञ्चनवतितमे पुटे किमस्ति स्थूलक्षरैः?
पृथक् व्यवहारसाधारणं कारणम्. अच्छा, पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम्. असाधारणं कारणम् इति तस्य लक्षणवाक्यम् अस्ति. एतत् लक्षणे असाधारणं कारणम् इति निर्देशः कृतः. अस्तु, पृथक् यः पृथक्त्वं तस्य विषये यः लक्षणवाक्यम् अस्ति, तत्र असाधारणं कारणम् एव पृथक्त्वम् अस्ति. तत्र निर्देशः तत्र अस्ति.
कस्य कारणं पृथक्त्वं? कस्य असाधारणं कारणं पृथक्त्वम्?
शब्दप्रयोगः अस्ति
इति अस्ति. पृथक् व्यवहारस्य असाधारणं कारणं पृथक्त्वं. पृथक्त्वं नास्ति चेत् पृथक् इति व्यवहारः न कुर्मः, न कर्तुं शक्नुमः. साधु, व्यवहारस्य इति समीचीनम्.
किं तेन ज्ञायते? साधारणकारणात् भिन्न भिन्नं कारणम् इत्युक्ते कोऽपि साधारण पृथक् इति यः पृथक् व्यवहारः इति यः अस्ति, तत् कोऽपि साधारणकारणं नास्ति, असाधारणं कारणम् अस्ति. इदानीं किं साधारणं कारणं, किम् असाधारणं कारणम् इति तस्य विषये लिखितं. यत् सर्वं कार्यं जनयितुम् आवश्यकं, कोऽपि तादृशकारणम् अस्ति यः सर्वेषां पदार्थानां कृते तत्र आवश्यकं भवति, तेषां जनयितुम् आवश्यकमस्ति. तत् साधारणकारणं यथा पूर्वोक्तप्रागभावः, इत्युक्ते यदि पदार्थः नास्ति तत्र प्रागभावः तस्य प्रागभावः अस्ति तदा एव वयं तत्र तस्य विषये एतत् तस्य निर्माणं कुर्मः इति तत्र आयाति. सो प्रागभावः पूर्वे सर्वेषां पदार्थानां कृते प्रागभावः भवेत्,
न हि कार्यपदार्थानां. कार्यपदार्थ आकाशः नित्यः, आत्मा नित्यः, तत्र तथा नास्ति. यत्र घटः पटः इति कार्यपदार्थाः सन्ति तेषां सर्वेषाम् एकं कारणमस्ति प्रागभावः. यद् भवत्या उक्तं घटः अस्ति चेत् किमर्थं घटः घटस्य निर्माणम् आवश्यकं खलु. तस्य प्राग् अभावः इति एकं कारणं भवति इति स्वीक्रियते.
न हि प्रागभावविना किञ्चित् कार्यं जायते, अतः सः साधारणकारणं. तादृश यः सर्वेषां पदार्थानां कृते यत् कारणम् अस्ति तत् साधारणकारणम्. साधारणभिन्नकारणम् असाधारणम्, यत् कार्यविशेषम् एव जनयति न सर्वं कार्यं. यथा कपालः घटम् एव जनयति, इत्युक्ते कपालेन वयं घटम् अपि च कोऽपि अन्यपदार्थः न तत्र जनयितुं शक्नुमः. अतः कपाल इति घटविशेषकारणम् अस्ति, अतः सः असाधारणं कारणम्. तन्तु तथैव तन्तु पटमेव जनयति, अतः तन्तु यः अस्ति तत् असाधारणं कारणं पटस्य कृते. प्रकृतेः अपि पृथक् इति शब्दप्रयोगः पृथक्त्व पदार्थे स्वीकृते एव भवति. प्रकृते अपि पृथक् इति शब्दप्रयोगः, सो पृथक् इति शब्दप्रयोगः पृथक् पृथक् पदार्थानां विषये एव वयम् इति यः शब्दप्रयोगः अस्ति, इत्युक्ते घटः पटात् पृथक् इति तत्र तादृशप्रयोगः लोके अस्ति, स्वीकृत्य भवति. परन्तु सः पदार्थः अन्यानि घट आदि कार्याणि न जनयति. सः पदार्थः इत्युक्ते पृथक् इति पदार्थः वा? पृथक्त्वं पृथक्त्वं तु गुणः अस्ति.
पदार्थः इत्युक्ते सर्वे पदार्थाः, पदस्य अर्थमस्ति पदार्थः.
परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति, अतः सः तादृशव्यवहारस्य असाधारणं कारणं भवति. अन्यानि घटादिकार्याणि न जनयति.
पृथक्त्वं घटस्य कारणं भवितुम् अर्हति वा?
न भवति, कस्यचित् पदार्थस्य कारणं न भवितुम् अर्हति. तु असाधारणं कारणं किमर्थम् उक्तम्? कारणमेव नास्ति
पृथक्त्वं. पृथक्त्वं व्यवहारस्य कारणमस्ति खलु, पृथक् व्यवहारस्य कारणमस्ति पृथक्त्वम्.
अस्तु,
किन्तु पृथक्त्वम् अन्य किमपि न जनयति, घटं वा पटं वा किमपि इति किमपि. अत्र सामान्यविषये लक्षणं किं, लक्षणस्य लक्षणं किं, लक्षणमिति असाधारणं कारणम्, असाधारणधर्मः, क्षम्यताम्, असाधारणधर्मः इति लक्षणम्. अत्र असाधारणं कारणं, साधारणकारणानि देशः, कालः, ईश्वर इच्छा इति पञ्च वा षड् विषयाः सन्ति. ते सर्वेषां कार्याणां कारणं भवन्ति, कारणानि भवन्ति. तत्र प्रागभावः एकः अस्ति, साधारणकारणानि. तद्भिन्नं यथा भवति उक्तम् असाधारणकारणं. समीचीनम्.
अतः सः तादृशव्यवहारस्य असाधारणं कारणं भवति. सो पृथक्त्वं पृथक्त्वव्यवहारस्य असाधारणं कारणं भवति. विशेषः तु अग्रे विशेषः तु अग्रे वक्ष्यति, विशेषविषये अग्रे लिखितमस्ति इति. तत्र पृथक्त्वव्यवहार असाधारणकारणं पृथक्त्वं, पृथक्त्वस्य लक्षणमस्ति.
चन्द्रमिति भगिनी पुनः पठित्वा वदति वा? भगिनी अस्ति?
एतल्लक्षणे असाधारणम् एतल्लक्षणे असाधारणं कारणमिति निर्देशः कृतः. किं तेन ज्ञायते? साधारणकारणत्वात् साधारणकारणात् भिन्नं कारणं. किं साधारणकारणं? यत् सर्वं कार्यं जनयितुम् आवश्यकं यथा पूर्वोक्तः प्रागभावः. न हि तेन विना किञ्चित् कार्यं जायते. अतः सः साधारणकारणं तद्भिन्नम् असाधारणं यत् कार्यविशेषमेव जनयति न सर्वं कार्यं. यथा कपालः घटमेव जनयति, तन्तुः पटमेव प्रकृतेपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति. परन्तु सः पदार्थः अन्यापि खडादिकार्याणि न जनयति. अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति. विशेषस्तु अग्रे वक्ष्यते.
भगिनि एकनिमिषं, तत्र भवत्याः ध्वनिः किञ्चित् तत् तावत् बलं नास्ति, किञ्चित् अधिकं कर्तुं शक्नोति वा? ध्वनेः बलं
ध्वनिं शृणोति वा?
श्रूयते किञ्चित्, तावत् सर्वेषां किम् अन्ये सर्वे शृण्वन्ति वा समीचीनं?
किञ्चित् मन्दमस्ति.
हा किञ्चित् मन्दमस्ति, किञ्चित् तत्र मैक्रोफोन् पार्श्वे
सङ्गणके किञ्चित् प्रश्नम् अभवत्, मोबैल् द्वारा एव अहम् इदानीं योजितम्.
एवमेव अस्तु अस्तु अस्तु, वदतु. श्रूयते किन्तु वदतु भवतु.
अत्र पृथक्तस्य लक्षणविवरणम् उपरि दत्तम् अस्ति. एतल्लक्षणे
किं तद् लक्षणं? किं तद् लक्षणं?
नवद्रव्यवृत्तिः इति पृथक्त्वम् इत्युक्ते नवद्रव्यवृत्तिः इति.
तत् सत्यं, किन्तु तद् लक्षणं नास्ति. पृथक्त्वस्य लक्षणं किं? पूर्वस्मिन् पुटं पश्यतु, पञ्चनवतितमे पुटे.
पृथक्त्वव्यवहारसाधन पृथक्त्वव्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्तिः. तत्
पृथक्त्वम् इति
असाधारणं कारणम्
इति अस्ति. व्यवहारस्य असाधारणं कारणं पृथक्त्वं, तस्मिन् विषये अत्र अस्मिन् परिच्छेदे किञ्चित् अस्ति. असाधारणं कारणम् इति अस्ति खलु लक्षणवाक्ये. किमर्थं तथा?
एतत् लक्षणे असाधारणं कारणमिति निर्देशः कृतः. अत्र किं तेन ज्ञायते? पृथक्त्व पृथक् व्यवहारम् पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति वदनेन किं ज्ञायते?
इत्युक्ते असाधारणं कारणम् इति वदनेन किं ज्ञायते इति.
असाधारणं कारणं पृथक्त्वम् इति वदनेन किं ज्ञायते? साधारणकारणात् भिन्नं कारणम्. असाधारणकारणम् इत्युक्ते साधारणकारणात् भिन्नं. किं अत्र किं साधारणं कारणम् इति वयं जानीमः. यत् सर्वं कार्यं जनयितुम् आवश्यकं तद् साधारणकारणं. पूर्वोक्तं प्राग् अभावः एकम् उदाहरणमस्ति. तद् साधारणकारणं सर्वं कार्यं जनयितुं तस्य आवश्यकता अस्ति. न हि तेन विना किञ्चित् कार्यमपि जनयितुं न शक्यते.
केन विना? केन विना?
प्राग् अभावस्य विना
हा प्राग् अभावेन विना किमपि समीचीनं कार्यं न जायते
न जायते अतः
यत्र यत्र कार्यजनकं भवति तत्पूर्वं तत्तत् कार्यस्य प्रागभावः अस्ति खलु तर्हि कार्याधिकरणे सर्वदा प्रागभावः अस्ति इति सर्वं निकषः प्रागभावे अपि अस्ति निकषत्रयं प्रागभावे अस्ति अनेन प्रागभावः अपि एकं कारणम् इति नैयायिकाः स्वीकुर्वन्ति अन्ये वदन्ति कथं भोः अभावः अभावपदार्थः कथं भावपदार्थस्य कारणं भवितुम् अर्हति इति अपरं चिन्तनम् किन्तु नैयायिकाः तु प्रागभावः अपि एकं कारणम् इति ते स्वीकुर्वन्ति
भिन्नम् असाधारणं कारणम् एतत् साधारणकारण भिन्नं तद् असाधारणं कारणं भवति यत् कार्यविशेषमेव जनयति न सर्वं कार्यम् असाधारणकारणेन कार्यविशेषमेव जनयति सर्वं कार्यं न जनयति यथा कपालः खडमेव जनयति तन्तुः पठमेव प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक् कार्यम् येन पृथक् कार्यं जनयति तत् येन कारणेन पृथक् कार्यं जनयति तत् असाधारणं कारणं भवति
न पुनः वदतु प्रकृते अपि
पृथक् इति शब्दप्रयोगः
इति व्यवहारः पृथक् इति व्यवहारस्य
ज्ञानजने शब्दप्रयोगः व्यवहारः
समीचीनं तादृशप्रयोगः तदा एव भवति यदा कोऽपि पृथक्त्वम् इति पदार्थं स्वीकरोति पृथक्त्वपदार्थे स्वीकृते एव पृथक् इति शब्दप्रयोगः भवितुमर्हति इति इति अस्य वाक्यस्य आशयः
खडं जनयितुं पडं जनयितुं तन्तु एकं पृथक् पदार्थं स्वीकरोति तादृशं
न न न न पुनः वदतु भगिनि न बुद्धं
पडं जनयितुं तन्तुः एकं पृथक्
न तत् तद् पृथक् मास्तु पटस्य किं निर्माणार्थं तन्तवः भवेयुः खलु तन्तुः पटस्य असाधारणं कारणम्
तन्तुः पृथक् इति न वक्तुं शक्यते
वा कस्मात् पृथक् इति तद् भिन्नवार्ता अस्ति तत्तु अस्ति तन्तुः कपालात् पृथक् इति भिन्नवार्ता अत्र तत् न वदति अत्र वदति कपालः घटमेव जनयति न तु पटं तन्तुः पटमेव जनयति न तु घटम् अथवा अन्य किमपि तथा पृथक्त्वम् इति गुणः पृथक् इति शब्दप्रयोगम् एव जनयति न तु घटं पटं जनयति पृथक्त्वम् इति गुणः पदार्थः केवलं पृथक् इति शब्दप्रयोगस्य कारणं न तु अन्यत् पदार्थं प्रति अनेन असाधारणं कारणम् यदा तन्तुः पटमेव जनयति पृथक्त्वं शब्दप्रयोगमेव जनयति कीदृशं शब्दप्रयोगं पृथक् व्यवहार इति घटः पटात् पृथक् इत्यादि सदस्ति
पृथक् पृथक्त्वपदार्थे स्वीकृते एव भवति प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति खडं कपालः खडं जनयति तन्तुः पडं जनयति इति पृथक् एतत् गुणस्य शब्दप्रयोगेन एतत् गुणस्य ज्ञानम् एव जनयति
न गुणम् अनेन शब्दप्रयोगं जायते अत्र गुणमिति कारणम् अत्र पृथक्त्वम् इति शब्दप्रयोगस्य कारणं पृथक्तं पृथक्त्वम् इति गुणः अस्ति इति पदार्थः अस्ति यः तत् स्वीकरोति सः एव वदति एषः तस्मात् पृथक् इति यः पृथक्त्वं न स्वीकरोति सः अयं तस्मात् पृथक् इति न वक्तुं शक्नोति शब्दप्रयोगं न कर्तुं शक्नोति इति वदति प्रकृते अपि अस्मिन् सन्दर्भे अस्मिन् उदाहरणे पृथक् इति शब्दप्रयोगः तेनैव क्रियते यः पृथक्त्वम् इति पदार्थः अस्ति गुणः अस्ति इति स्वीकरोति तदा एव भवति शब्दप्रयोगः साधु
अस्तु
साधु
पृथक्त्वार्थे स्वीक्रियते एव भवति
पृथक्त्वमिति पदार्थः अस्ति गुणः अस्ति अत्र पदार्थः इत्युक्ते सप्तपदार्थाः न सामान्यपदार्थः इत्युक्ते यस्य पदस्य अर्थः अस्ति सः पदार्थः सामान्यप्रयोगः पदार्थः
पृथक्त्वार्थे स्वीकृते एव भवति परन्तु सः पदार्थः अन्यानि खडादिकार्याणि न जनयति सः पदार्थः
कः पदार्थः
पड तन्तुः अत्र
न अत्र सः पदार्थः इत्युक्ते पृथक्त्वं
सः पदार्थः
पृथक्त्वम् इति पदार्थः किं जनयति पृथक् व्यवहारं जनयति यथा तन्तुः पटं जनयति पटमेव जनयति कपालः घटमेव जनयति तथा पृथक्त्वम् इति पदार्थः शब्दप्रयोगम् एव जनयति कीदृशं शब्दप्रयोगं पृथक् व्यवहारः इत्युक्ते एषः तस्मात् पृथक् इति
पृथक्त्वम् इति शब्दप्रयोगः पृथक् इति व्यवहारः एव जनयति वा
पृथक्त्वम् इति गुणः व्यवहारं जनयति शब्दप्रयोगं जनयति पृथक् व्यवहारस्य असाधारणं कारणं पृथक्त्वम् इत्युक्ते पृथक्त्वम् इति पदार्थः गुणः पृथक् इति व्यवहारं प्रति कारणम् यः स्वीकरोति पृथक्त्वम् इति गुणः अस्ति सः एव वक्तुं शक्नोति एषः तस्मात् पृथक् घटः पटात् पृथक् इत्यादि प्रयोगः तदा एव भवति यदा पृथक्त्वम् इति पदार्थं स्वीकृतं पदार्थः स्वीकृतः
स्पष्टमस्ति वा भगिनि पृथक् व्यवहार एव जनयति अन्य खडादिकार्याणि न जनयति
हा इति पृथक्त्वं शब्दप्रयोगम् एव जनयति न तु घटपटादि कार्याणि
अस्तु अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति सः इत्युक्ते अत्र पृथक्त्वं वा अतः सः पृथक्त्वं तादृशव्यवहारस्य असाधारणं कारणं भवति विशेषः तु अग्रे वक्ष्यते
अस्मिन् विषये अग्रे आयाति अत्र सः पुल्लिङ्गपदमस्ति सः इत्युक्ते पृथक्त्वपदार्थः पृथक्त्वम् इति अस्ति चेत् तत् इति वक्तव्यं सः इत्युक्ते पृथक्त्वपदार्थः अथवा गुणः तादृशव्यवहारस्य कीदृशव्यवहारस्य
पृथक् व्यवहारस्य
हा एषः तस्मात् पृथक् इति व्यवहारस्य असाधारणकारणम् अस्ति इति स्पष्टमस्ति सर्वेषाम्? आरती भगिनी स्पष्टमस्ति वा? भगिनी अस्ति आरती न श्रूयते, किमर्थं किञ्चित् मन्दमस्ति, अबलमस्ति, सर्वेषां किं सर्वैः श्रूयते वा आरती भगिन्याः ध्वनिः?
किञ्चित् मन्दमस्ति महोदय, मन्दमस्ति.
हा किमर्थं? किञ्चित् पार्श्वे आगच्छतु तत् मैक्रोफोन् इत्यस्य. न मन्दं श्रूयते, वाल्यूम् अधिकं नास्ति.
इदानीं श्रूयते वा महोदय?
बहु सम्यक् अस्ति, इति नार्मल् अस्ति. भवती अवगतं वा अस्मिन् परिच्छेदे किम् अस्ति इति? असाधारणं कारणम् साधारणं कारणम् इति.
आं महोदय,
किञ्चित् सारांशेन स्वशब्दैः वदतु.
पृथक्त्वस्य एतद् लक्षणे पृथक्त्वस्य लक्षणे असाधारणं कारणम् इति निर्देशः कृतः. असाधारणं कारणम् इत्युक्ते किं? तेन किं ज्ञायते? साधारणकारणात् एतत् कारणं भिन्नम् अस्ति इति ज्ञायते. साधारणं कारणं किम् अस्ति? साधारणकारणस्य विषये ग्रन्थकारः वदति, प्राग्भावः अपि साधारणं कारणं साधारणकारणम् एव अस्ति. यत् सर्वं कार्यं जनयितुम् आवश्यकम् अस्ति तत् सर्वम् अस्ति साधारणं कारणम्. असाधारणं कारणं तद् भिन्नम् अस्ति. यत् कार्यविशेषमेव जनयति न सर्वं कार्यं, यत् कार्यविशेषमेव जनयति सर्वकार्यस्य.
अत्र किम् अस्ति, साधारणकारणानि किञ्चित् बहूनि सन्ति, देशः कालः ईश्वर इच्छा इति पञ्च वा षट् वा सन्ति. तेषु एकः अस्ति प्रागभावः. प्रागभावः सर्वाणि कार्याणि प्रति आवश्यकं कारणम्. किन्तु असाधारणं कारणं तत्तत् पदार्थं विशेषकार्यमेव जनयति, न तु सर्वाणि कार्याणि न जनयति. एकमेकं विशेषकार्यं, हा यथा
कपालः घटमेव जनयति, तन्तुः पटमेव जनयति. अन्यत् किमपि? तन्तुः घटं न जनयितुं शक्नोति, कपालः पटं न जनयति इति. अतः ते कार्यविशेषमेव जनयन्ति, न सर्वं कार्यं. प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्व पदार्थे स्वीकृते एव भवति, परन्तु सः पदार्थ अन्यानि घटादिकार्याणि न जनयति. प्रकृते इत्युक्ते किं महोदय? प्रकृते अपि
अस्मिन् सन्दर्भे अस्मिन् विषये पृथक्त्वम् इति विषये अस्माकं चर्च्यमाने विषये प्रकृते
अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति. पृथक् पदार्थस्य शब्दप्रयोगः पृथक्त्वपदार्थ यदि स्वीकर्तुम् इच्छामः तदा एव तस्य प्रयोगः भवति.
परन्तु प्रयोगः कस्य प्रयोगः भवति?
पृथक् इति पृथक् पदार्थ पृथक् इति शब्दप्रयोगः
अस्ति,
परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति. पृथक् पदार्थः घटादिकार्याणि, घटादि इत्युक्ते घटः पट्टम् एतत् सर्वं न जनयति.
पृथक्त्वम् इति पदार्थः पृथक्त्वम् इति पदार्थः
पृथक्त्वम् इति पदार्थः पृथक् इति शब्दप्रयोगः
शब्दप्रयोगं जनयति पृथक्त्वं पदार्थः एषः तस्मात् पृथक् इति प्रयोगस्य कारणं न तु अन्यत् अन्यत् किमपि कस्यापि
अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति अत्र तादृशव्यवहारः इत्युक्ते पृथक्त्वपदार्थः अथवा पृथक्त्वगुणः
न पृथक् व्यवहारः
पृथक्
पृथक् व्यवहारस्य असाधारणं कारणं पृथक्त्वम् इति गुणः इति लक्षणम् अत्र किञ्चित् पदानां किञ्चित् भ्रमः अस्ति इति भाति पृथक् इति व्यवहारः पृथक्त्वम् इति कारणं गुणः इति कारणं कं प्रति कारणम् उदाहरणे एषः तस्मात् पृथक् इति व्यवहारः अस्ति तद्व्यवहारं प्रति शब्दप्रयोगं प्रति पृथक्त्वमिति गुणः कारणम् यः एतद् गुणं स्वीकरोति पृथक्त्वम् इति गुणं स्वीकरोति सः एव शब्दप्रयोगं करोति एषः तस्मात् पृथक् इति साधु अनेन तत् असाधारणं कारणं कं प्रति केवलं व्यवहारं प्रति न तु घटपटं प्रति पृथक्त्वम् इति गुणः केवलं शब्दप्रयोगं प्रति कारणम् इति स्पष्टमस्ति वा भ्रमः अस्ति चेत् कस्य विषये भ्रमः अस्ति
परन्तु भ्रमः अस्ति परन्तु कः भ्रमः इति अपि वक्तुं न शक्नोमि
अस्तु हेग्डे महोदय स्वशब्दैः वदतु एकवारम्
आम् महोदय एतल्लक्षणे इत्युक्ते पृथक् व्यवहार असाधारणकारणमिति यत् वयं पठितवन्तः पृथक्तस्य लक्षणवाक्यं तत् लक्षणवाक्ये असाधारणं कारणमिति निर्देश कृतः अस्ति किं तेन ज्ञायते असाधारणकारण इति उक्तेन किं ज्ञायते इति प्रश्नः अस्ति इत्युक्ते साधारणकारणात् भिन्नकारणम् इदानीं साधारणकारणं किम् इति प्रश्नः वदति यत् सर्वं कार्यं जनयितुम् आवश्यकं निर्दिष्टकार्यमेव न सर्वं कार्यं जनयितुं यत् आवश्यकमस्ति तदस्ति साधारणकारणम् यथा पूर्वं वयं पठितवन्तः चतुर्विध अभावः सन्ति प्रागभावः प्रद्वंसभावः अन्योन्यभावः अत्यन्तभावः तत्र प्रागभावः इति सर्वपदार्थजनयितुम् आवश्यकमस्ति प्राग अभावः नास्ति चेत् तत्र पदार्थस्य जननस्य आवश्यकता एव न भवति अतः प्रागभावः इति आवश्यकं तत् सर्वपदार्थजननकृते आवश्यकमस्ति तदस्ति अतः साधारणकारं न हि तेन विना किञ्चित् कार्यं जायते प्रागभाविना किञ्चित् कार्यं न जायते अतः साधारणकारं तद्भिन्नम् असाधारणं यत् कार्यविशेषमेव जनयति न सर्वकार्यम् इदानीं कपालः अस्ति चेत् तद् घटमेव जनयितुं शक्नोति पटं जनयितुं न शक्नोति अथवा अन्यत् किमपि वस्तुं जनयितुं न शक्नोति केवलं घटकृते निर्दिष्टमस्ति कपालः इति तदस्ति असाधारणकारं इत्युक्ते सर्वपदार्थ जननस्य कृते तदावश्यकं नास्ति केवलं निर्दिष्टं पदार्थमेव तत् जनयितुं शक्नोति तन्तु अपि पश्यामः चेत् तत् पटमेव जनयति न तु घटम् इदानीम् अस्मिन् सन्दर्भेपि पृथक् इति शब्दप्रयोग कोऽपि करोति चेत् तत् पृथक्त्वपदार्थे स्वीकृते एव भवति यथा कपालघटे स्वीकृते एव भवति तादृशमेव पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे एव स्वीकृते भवति तादृशव्यवहारे एव स्वीकृतः भवति परन्तु सः पदार्थ अन्यानि घटादिकार्याणि न जनयति इति पृथक् इति वदामः चेत् घट उत्पादनं भवति वा न भवति पट उत्पादनं न भवति केवलं पृथक् इति व्यवहारः भवति अतः सः तादृशव्यवहारस्य असाधारणकारणमिति भवति अतः पृथक् इति
पृथक्त्वं
पृथक्त्वमिति तादृशपृथक्व्यवहारस्य असाधारणकारणं भवति. अन्ये अग्रे अपि विशेष इति विषये अग्रे वक्ष्यमाणमस्ति इति
समीचीनमस्ति. अत्र ओवर् काम्प्लिकेशन् मास्तु, सरलमेव अस्ति. यथा घटः घटं कपालः घटमेव जनयति, तन्तुः पटमेव जनयति, तथा पृथक्त्वम् इति गुणः पदार्थः केवलं व्यवहारं जनयति, न तु अन्यत् किमपि जनयति. अनेन पृथक्त्वम् इति असाधारणं कारणं कं प्रति? पृथक् व्यवहारं प्रति, शब्दप्रयोगं प्रति पदार्थः पृथक्त्वम् इति असाधारणं कारणम् इति सामान्यचिन्तनमस्ति. समीचीनमस्ति. स्पष्टमस्ति. सर्वत्र लक्षणवाक्येषु असाधारणधर्मः एव लक्षणम् इति सर्वत्र भवति. स्पष्टमस्ति वा? अग्रे सरेम. हरि ओम्. श्रूयते वा न श्रूयते?
श्रूयते
महोदय.
अग्रे सरेम अस्तु. आरती भगिनी सूक्ति ललन्तिका. हा,
सूक्ति ललन्तिका. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. अत्र इदं विचार्यते, भवति भेदेन सर्वत्र निर्वाहः. ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः, न च विनिगमनाविरहः. रूपादौ रसादि प्रतियोगिकभेदस्य उभयवादिसिद्धस्य
क्लुप्तत्वात्
गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. यदि कोऽपि वदति भेदः एव पृथक्त्वम् अस्ति इति कदाचित् आक्षेपः अस्ति, तस्य निरासः अत्र क्रियते.
अत्र यदा इत्युक्ते पृथक्त्वम् इति भिन्नः गुणः, विशिष्टगुणः इति प्राचीननैयायिकानां मतम्. नव्यनैयायिकाः एवं वदन्ति, भेदः एव पृथक्त्वम् इति आक्षेपं ते कुर्वन्ति. तस्य तेषाम् आक्षेपस्य निवारणं, समाधानं, निरासः इदानीं वक्ष्यमाणः अस्ति.
भेदः एव पृथक्त्वम् इति नवनैयायिकाः वदन्ति.
एवम् इत्युक्ते पृथक्त्वम् इति भिन्नगुणः नास्ति, विशेषगुणः नास्ति, भेदः एव पृथक्त्वम्. तर्हि गुणाः चतुर्विंशति न, त्रयोविंशतिः एव इति तेषां मतम्. अनेन
अत्र इदं विचार्यते, भवति भेदेन सर्वत्र निर्वाहः. भवति भेदेन सर्वत्र निर्वाहः इत्युक्ते भेदेन एव सर्वत्र व्यवहारः भवति.
विवरणं भवति सर्वत्र. भेदं स्वीकृत्य एव सर्वत्र अवगमनं भवति, विवरणं भवति.
भेदं स्वीकृत्य एव विवरणं भवति.
पृथक्त्वस्य आवश्यकता नास्ति इति.
ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः, पूर्वोक्ताः प्रत्ययाः पृथक्त्व यदि कुत्रचित् पूर्वोक्ताः प्रत्ययाः सन्ति पृथक्त्व अवगाहित्वेन ते सन्ति तथा तस्य विषयः अपि भेदः एव अस्ति एतदस्ति नवनैयायिकाः मतम्
इत्युक्ते घटः पटात् पृथक् पटः मठात् पृथक् इति ये वदन्ति ये प्रत्ययाः सन्ति येषु प्रत्ययेषु पृथक्त्वम् इति अवगाहते तैः वाक्यैः भेदः एव विषयः तत्र यद्यपि ते पृथक्त्वम् इति पदस्य उपयोगं कुर्वन्ति तेषाम् इच्छा तु भेदः एव अस्ति तत्र भेदः एव विषयः इति उपन्यस्ताः इत्युक्ते उपस्थापिताः किम् किं प्रश्नः अस्ति वा भगिनि अस्तु
न च विनिगमनाविरहः अस्य विनिगमनाविरहः
विचित्रपदं नूतनं पदम् अस्ति नैयायिक किं भाष्येषु अस्य प्रयोगः भवति विनिगमनाविरहः विनिगमना इत्युक्ते कोऽपि जानाति वा विनिगमना विनिगमना इत्युक्ते यत्र विकल्पद्वयमस्ति मार्गद्वयमस्ति अथवा विकल्पद्वयमस्ति तेषु कः समीचीनः इति निर्णेतुं या युक्तिः स्वीक्रियते या युक्तिः अस्ति सा विनिगमना पुनः वदामि अनन्तरम् उदाहरणं ददामि यथा विकल्पद्वयमस्ति तेषु एकः श्रेष्ठः एकः समीचीनः इति निर्णयनार्थं किञ्च काचन युक्तेः प्रयोगः भवति सा युक्तिः विनिगमना यथा एकः कार्यालयं गन्तुम् इच्छति सः चिन्तयति स्ववाहनेन गच्छामि वा लोकयानेन गच्छामि वा तर्हि ओ स्ववाहनेन गच्छामि चेत् शीघ्रं प्राप्नोमि किन्तु तत्र पार्किङ्ग् क्लेशः भवति लोकयानेन गच्छामि चेत् अधिकं समयः अधिकः भवति किन्तु पार्किङ्ग् इति क्लेशः नास्ति अस्मिन् समये पार्किङ्ग् क्लेशः भवति इति युक्तिः युक्तिम् उपयुज्य लोकयानं स्वीकरोति एषा युक्तिः विनिगमना विकल्पद्वयेषु यत् वरम् इति तादृशयुक्तिः विनिगमना साधु इति विनिगमना विरहः अभावः अत्र किं वदति अत्र मतद्वयमस्ति खलु प्राचीनमतं नवीनमतं तयोः मध्ये किं समीचीनम् इति निर्णयनार्थं विनिगमना विरहः न युक्तिः युक्तेः अभावः इति न नेगेटिव् डबल् वदति न च विनिगमना विरहः पृथक्त्वम् अस्ति वा भेदः भेदः एव पृथक्त्वं वा पृथक्त्वं भिन्नः गुणः वा इति विनिगमना इति विकल्पद्वयोः कः समीचीनः इति निर्णयनार्थं विनिगमनायाः विरहः नास्ति युक्तिः अस्ति वस्तुतः इति सरलरीत्या तेन वक्तुं शक्यते युक्तिः अस्ति किन्तु एवं शैल्यां वदति युक्तिः अस्ति निश्चयं निश्चयनार्थं युक्तिः अस्ति
युक्तिः
अग्रे वदति का युक्तिः इति.
रूपादौ रसादि प्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात् रूपादि रस आदि प्रतियोगिकभेदस्य रूपे रसे प्रतियोगिकभेदः अस्ति
रूपे रसः नास्ति गन्धे स्पर्शः नास्ति इति रूपादौ रूपादिगुणादौ तेषु रसम् इति भिन्नगुणस्य अभावः अस्ति खलु अस्माभिः पूर्वं पठितं खलु प्रतियोगिताक अभावः कुत्र आसीत् पूर्वस्मिन् पुटे भेदस्य पृथक्त्वस्य च को विशेषः तत्र पठतु आर्ति भगिनी अत्र इदं वक्तव्यम्
अत्र इदं वक्तव्यं घटः पटो न घटः पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिताक अभावरूपं साधयन्ति इति उक्तम्
तदेव अत्र रूप रसादि प्रतियोगिताकभेदः अभाव अन्योन्य अभावरूपभेदः एव वदत् एव अस्ति इति उभयवादी प्राचीननैयायिकाः नव्यनैयायिकाः द्वौ अपि रूपादौ रसादि अन्योन्य अभावः अस्ति भेदः अस्ति इति क्षुत्वात् स्वीकार्यात् अङ्गीकुर्वन्ति अङ्गीकारात्
क्लुप्तत्वात् इत्युक्ते
अङ्गीकारात् द्वौ अपि स्वीकुर्वन्ति उभयवादिनः स्वीकुर्वन्ति किं स्वीकुर्वन्ति रूपादौ रसादि प्रतियोगभेदः अस्ति अन्योन्यभावः अस्ति ते तत्र क्लेशः नास्ति द्वयोः मध्ये
प्रतियोगिकभेदः स्वीक्रियन्ते
रूपः रसः न इति तादृश प्रयोगः द्वौ अपि कुर्वन्ति भेदः एव तत्र
गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः रूपं रसः नास्ति इत्यादि प्रतीते गुणः गुणान् अङ्गीकारेण गुणे गुण अनङ्गीकारेण
गुणे गुणः नास्ति खलु गुणे गुणः नास्ति गुणः द्रव्ये एव अस्ति खलु यतोहि गुणः गुणे गुणः नास्ति इति सर्वे अङ्गीकुर्वन्ति अनेन तर्हि पृथक्त्वेन रूपं न रसः इति अनिर्वाहः रूपं न रसः इति अवगमनार्थं पृथक्त्वस्य आवश्यकता नास्ति यतोहि गुणे गुणः न भवति रूपं न रसः रूपं रसः न अस्य प्रतीतेः अवगमनार्थं पृथक्त्वस्य आवश्यकता नास्ति पृथक्त्वम् अनेनैव रूपं न रसः इति प्रयोगः भवति इति नास्ति यतोहि रूपे निर्वाहः इत्युक्ते किं डिस्क्रिप्शन् इति विवरणम् अनिर्वाहः न आवश्यक न निर्वाहः यतोहि गुणे गुणः नास्ति तर्हि रूपं न रसः इति वाक्यस्य आगमनार्थं पृथक्त्वम् इति गुणस्य आवश्यकता न भवति यतोहि रूपे पृथक्त्वं न भवितुमर्हति रसे पृथक्त्वं बुद्धि गुण गुणे गुणः नास्ति तर्हि रूपं न रसः इति अवगमनार्थं पृथक्त्वस्य प्रयोगः नास्ति पृथक्त्वेन एव रूपं न रसः इति अवगाहते इति नास्ति तस्य अनिर्वाहः अस्ति तर्हि पुनः पृथक्त्वस्य आवश्यकता नास्ति इति आक्षेपः अस्मिन् परिच्छेदे अस्ति यथा भगिनी पूर्वस्मिन् वर्गे पृष्टवती अत्र एवम् एषा शैली अस्ति नैयायिकपुस्तकेषु अपि च भाष्येषु अपि यत्र ग्रन्थकारः लेखकः किञ्चित् किञ्चित् समयम् अपरं पक्षं स्वीकरोति अत्रापि तथा ग्रन्थकारः नैयायिकमतं स्वीकरोति फर् द मूमेण्ट् तत्र किम् अस्ति इति वक्तुम् इति आरम्भे वदति अनन्तरं तस्य निरासं करोति समाधानं निवारणम् आक्षेपस्य निवारणं करोति आरम्भे सः स्वीकरोति अस्तु भवतु नाम भवतु एवम् अस्ति भेदः एव पृथक्त्वम् इति स्वीकुर्मः पश्यामः तेन किम् इति आरम्भे तथा वदति अस्मिन् परिच्छेदे न बहुत्र लेखकः प्राचीनमतमेव स्वीकरोति हि इस् लीनिङ्ग् टुवर्ड्स् प्राचीनमतम् अत्र तत्र नवीनमतं सः वदति अस्मिन् सन्दर्भे प्राचीनमतं सः स्वीकरोति प्रश्नः समीचीनः वस्तुतः परिच्छेदद्वयं सः आक्षेपं स्वीकरोति अग्रिमे परिच्छेदे अपि किं प्रतिपक्षं प्रतिपक्षस्य एव विषयः अस्ति साधु तर्हि चन्द्रमति भगिनि पुनः एकवारं पठतु एतदेव
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः अत्र इदं विचार्यते भवति भेदेन सर्वत्र निर्वाहः ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्वावगाहित्वेन उपन्यस्ताः तेषां हि भेदः एव विषयः न च विनिगमनाविरहः रूपादौ रसादि प्रतियोगिः भेदस्य उभयवादि सिद्धस्य क्लिप्तत्वात् गुणे गुणान् अङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः अत्र इदं विचार्यते भवति भेदेन सर्वत्र निर्वाहः भेदेन भवति इति
अत्र नव्यनायायिकाः ते वदन्ति पृथक्त्वम् इति विशिष्टगुणः नास्ति भेदः एव पृथक्त्वम् इति ते आक्षेपं स्थापयन्ति साधु इति तत् आक्षेपं ग्रन्थकारः किञ्चित् समयं यावत् स्वीकरोति भवतु नाम जनाः वदन्ति तुष्यतु दुर्जन इति सः अपि तुष्यतु एवं स्वीकरोमि आरम्भे इति भेदः एव भवतु पृथक्त्वम् इति तेन किम् इति वदति भेदेन एव सर्वत्र अवगमनं भवति भेदः एव भवेत् पृथक्त्वस्य आवश्यकता नास्ति इति प्रथमवाक्य द्वितीयं वाक्यं वदति भवति भेदेन एव सर्वत्र अवगमनम् इति
पृथक्त्वस्य आवश्यकं नास्ति इति तदेव अत्र तादृशमेव विचार्यते ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्वावगाहित्वेन उपन्यस्ताः तेषां हि भेदः एव विषयः ये जनाः पूर्वे पृथक्त्व पूर्वोक्ताः प्रत्ययः पृथक्त्वावगाहित्वेन
घटः पटात् पृथक् इति वृक्षः सस्यात् पृथक् इति ये पूर्वोक्ताः प्रत्ययाः यानि वाक्यानि उपयुज्य पृथक्त्वम् इति स्थापितम् अस्मिन्नेव ग्रन्थे तत्र उपस्थापिताः तादृश अवगाहवाक्यानि तेषां भेदः इव विषयः न तु पृथक्त्वम् इति
न च विनिगमनाविरहः न च विनिगमनाविरहः इत्युक्ते यत्र मार्गद्वयम् अस्ति तत्र किं मार्गं स्वीकुर्मः इति वयम् एकं निश्चितं निश्चयति किं कारणेन किमपि
यां युक्तिम् उपयुज्य चिन्तनं कुर्मः युक्तेः अभावः नास्ति
श्रेष्ठं मार्गं किम् इति वयं स्वीकुर्मः तदेव विनिगमनविरहः
विनिगमना इत्युक्ते युक्तिः युक्तिः यया युक्त्या मार्गं चिनोति सा युक्तिः विनिगमना the logic of making a choice tasya viraha nasti na cha viraha tasya
abhavah va viraha
itite ah viraha abhavah abhavah nasti iti na cha virahah vinagamana virahah abhavah nasti yuktehe abhavah nasti
tadashe yuktehe abhavah nasti
ah इति युक्तिः अस्ति वस्तुतया वक्तुमिच्छति सरलरीत्या
रूपादौ रसादि प्रतियोगिकभेदस्य रूपं रसं द्वयमपि प्रत्ययाः गुणाः भिन्नभिन्नगुणाः तस्य भेदस्य उभयवादिसिद्धस्य उभयं भिन्नम् अस्ति रूपं भिन्नं रसं भिन्नं तादृशम् उभयवादि
तत्तु अस्ति उभयवादिनः ये उभयं वदन् ये प्राचीननैयायिकाः एकविधवादिनः इति तयोः उभयवादिनयोः अङ्गीकारः अस्ति कस्मिन् विषये रूपादौ रस अभावः अस्ति प्रतियोगिकभेदः अस्ति रूपे रसभेदः अस्ति रूपः रसः न अथवा रूपः रसात् भिन्नः इति द्वौ अपि स्वीकृतः इति एकः विषयः अपरविषयः अस्ति गुणे
गुणे गुणान् अङ्गीकरेण
अङ्गीकारेण
अङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहः गुणे गुणान् अङ्गीकार गुणे गुणानङ्गीकारेण
गुणे गुण अनङ्गीकारेण गुणे गुणः नास्ति खलु गुणे गुण अनङ्गीकारेण गुणे गुणः अस्ति वा इति अस्ति तेन कारणेन
रूपं न रसः इति
तत्साधनार्थं पृथक्त्वस्य आवश्यकता नास्ति न तु पृथक्त्वेन रूपं न रसः इत्यादि प्रतितेः निर्वाहः भवति अनिर्वाहात् रूपं न रसः
अनिर्वाहात् इत्युक्ते अत्र पृथक्त्वस्य अनिर्वाहात् पृथक्त्वं न आवश्यकम् इति वा
न न निर्वाहः इत्युक्ते किं वदामः स्थापनार्थं विवरणार्थं वदनार्थं रूपं न रसः इत्यादि प्रतीतिः अस्ति रूपं न रसः तत् अवगमनार्थं पृथक्त्वम् इति गुणस्य आवश्यकता नास्ति भेदेन एव जानीमः रूपं न रसः अङ्गीकारः अङ्गीकारः क्लृप्तत्वम् अङ्गीकारः अङ्गीकारात् इति अत्र विनिगमनाविरहः नास्ति तत् साधनार्थं वाक्यद्वयम् अग्रिमवाक्यद्वयं स्थापयति तत्र कारणपञ्चमी इति अस्ति क्लृप्तत्वात् प्रथमकारणम् अनिर्वाहात् इति द्वितीयं कारणं प्रथमकारणमस्ति रूपादौ रसादि प्रतियोगिकभेदस्य उभयवादिनः स्वीकुर्वन्ति किं रूपादौ रसाभावः अस्ति तद्भेदः अन्योन्यभावः इति एकं कारणम् अङ्गीकारः एकं कारणं द्वितीयं कारणं गुणे गुणः नास्ति इति जानीमः तर्हि रूपं न रसः इति साधनार्थं पृथक्त्वम् इति गुणस्य आवश्यकता नास्ति न तु पृथक्त्वेन रूपं न रसः इति प्रतीते अवगमनं भवति निर्वाहः भवति इति द्वितीयं कारणं स्थापयति स्पष्टमस्ति
प्रथमं कारणम् एकवारमपि वदतु महोदय
रूपं न रसः इति सर्वे स्वीकुर्वन्ति पूर्व प्राचीननैयायिकाः अपि स्वीकुर्वन्ति नव्यनैयायिकाः अपि स्वीकुर्वन्ति किं रूपे रूपं न रसः रूपे रसभेदः अस्ति तत्र अन्योन्यभावः रूपे रसस्य अन्योन्यभावः अस्ति समीचीनं प्रतियोगिक अभावः प्रतियोगिकभेदः एव अन्योन्यभावः अन्योन्यभावः इत्युक्ते तादात्म्यसम्बन्धवचन प्रतियोगिताक अभावरूपम् अभावरूपः इति पूर्वं पठितं रूपः रसः न अथवा घटः पटः न तत्र घटे पटस्य अभावः अन्योन्यभावः प्रतियोगिताक अभावः एव भेदः इति सर्वे स्वीकुर्वन्ति तत्र क्लेशो नास्ति स्पष्टमस्ति
पृथक्त्वस्य शब्दप्रयोगस्य आवश्यकं नास्ति भेदः एव पर्याप्तम् इति
हा रूपं न रसः इति वदनार्थं पृथक्त्वस्य आवश्यकता नास्ति तत् गुणे गुणः नास्ति अनेन जानीमः रूपं न रसः क्षम्यतां रूपे पृथक्त्वम् इति नास्ति रसे पृथक्त्वं नास्ति यदि यतोहि गुणे गुणः न भवति तर्हि पृथक्त्वं न भवति रूपे वा रसे समीचीनमस्ति अस्तु अस्य करपत्रे इतोपि विवरणम् अस्ति किञ्चित् अग्रे सरेव पुनः करपत्रस्य पठनेन इतोपि स्पष्टता जायते इति मन्ये अग्रे भगिनी
अग्रे पठामः।
अग्रे पठ।
यत्तु वेदस्थले प्रतिज्ञ प्रतियोगी अनुयोगी वाचकपदयोः प्रथमा विभक्तिः पृथक्त्वस्थले तु अवधिवाचकपदात् पञ्चमी आश्रवाचकपदात् च प्रथमा इति पदार्थयोः भेदसाधकं क्वचिद् उक्तम्। तत्तु प्रक्रियामात्रं घटात् अन्यपटः भिन्नः पटः इत्यादि प्रतियोगिनिर्वाहाय
प्रयोग
प्रयोगः नैपद सम् अभिव्यवहारे एव तादृशविभक्तिनियमस्य उपयोगात् पदभेदस्य अर्थभेदे अप्रयोजकत्वात् च गुण्यः द्वितीया शाकांक्षत्वात् यतस्तेस्तु तदभावात् आदियेन कर्मसापेक्षकृते द्वितीयेन कर्मनिरपेक्षकृते अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकार आपत्तेः वेदस्थले प्रतियोगी अनुयोगी वाचकपदयोः प्रथमा विभक्तिः। अत्र महोदय यदा ते वदन्ति पृथक्त्वमेव भेदः, पृथक्त्वम् इति प्रथमे तु सप्तपदार्थेषु तत्र गुणः अस्ति एकं पदार्थः, ते वदन्ति पृथक्त्वं भेदः एव पृथक्त्वं, सो भेदः अपि तत्र गुणः वा गुणः गुणपदार्थः एव ते स्वीकुर्वन्ति
वा? न, भेदः इति गुणः न, भेदः भेदः एव, किमपि नास्ति तत्र पदार्थेषु, नास्ति
सप्तपदार्थेषु कुत्रापि नास्ति भेदः,
नास्ति
केवलं शब्दप्रयोगः
इति।
भेदस्थले प्रतियोगी अनुयोगी इति
भेदः एकविध अन्योन्यभावः एव, तत् वक्तुं शक्नुमः, भेदः अन्योन्यभावः इति।
आं पूर्वे कुत्रचित् आं पूर्वे तत्र उक्तम् अन्योन्यभावः एव भेदः। सो भेदस्थले तत्र प्रतियोगी अनुयोगी इति ये पदद्वयं तत्र तेषां तयोः तत्र प्रथमा विभक्ति अस्ति।
पृथक्त्वस्थले यथा किं यथा
प्रतियोगी अनुयोगी इति तत्र इत्युक्ते तत्र
सरलमस्ति, पूर्वस्मिन् पुटे भेदस्य पृथक्त्वस्य च को विशेषः इति अस्ति खलु, तत्र द्वितीयं वाक्यं पठतु।
घटः पटः न पटः घटः पटाद् भिन्नः इत्यादि प्रत्ययः
इति अस्ति, तत्र प्रथमवाक्ये घटः पटः न खलु,
प्रथमविभक्तिः अस्ति।
कः प्रतियोगी कः अनुयोगी अत्र?
घटः पटः न इति तत्र
मया किमुक्तं, यस्य पदस्य न पदः न इति यस्मात् पदात् अपरः अस्ति सः अनुयोगी खलु इति उक्तम्। ममापि कुत्रचित् तत्र रसः रूप घटः पटो न, तत्र पटः इति अनुयोगी अधिकरणं, पटे घटभेदः
अस्तु
पटः अनुयोगी अधिकरणं कस्य घटाभावस्य घटभेदस्य भेदस्थले प्रतियोगी अनुयोगी वाचकपदं घटः इति प्रतियोगिवाचकपदं पटः इति अनुयोगिवाचकपदं तयोः प्रथमविभक्तिः अस्ति न वा
आम् अस्ति तत्र
हा इत्येव तदेव अस्ति
इत्येव अत्र लिखितं भेदस्थले प्रतियोगी अनियोगिवाचकपदयोः प्रथमाविभक्ति पृथक्त्वस्थले तु अवधिवाचकपदात् पञ्चमी
अवधिवाचकपदात् किं जानाति वा
पीरियड्
सीमा सीमा यथा वृक्षात् फलं पतति तत्र वृक्षः अवधिवाचकपदं वृक्षात् तस्य पञ्चमी भवति अत्र घटः पटात् पृथक् एकं वाक्यमस्ति घटः पटः न द्वितीयमस्ति घटः पटात् पृथक् तत्र किं पृथक्स्थले तु
तत्र यः अनियोगी अस्ति अधिकरणस्य तत्र पञ्चमी अस्ति
न अत्र अनियोगी नास्ति न न उक्तम् अवधिवाचकपदं पटात् पटात् पृथक्
आश्रयवाचकपदात् पदात् च प्रथम
घटः
तस्य प्रथमाविभक्तिः अस्ति आम्
अथवा घटः पटात् भिन्नः इति सरलमस्ति घटः पटो न इति एकं घटः पटात् भिन्नः अथवा घटः पटात् पृथक्
पृथक् पृथक् पृथक् इति पदार्थयोः भेदसाधकं क्वचित् उक्तं क्वचित् उक्तं सो अत्र पृथक्त्वा अपि च भेदविषये किञ्चित् अत्र वाक्ये तत्र वयं किञ्चित् भेदः द्रष्टुं शक्यते इत्युक्ते तत्र ज्ञानाकारः किञ्चित् भिन्नम् अस्ति भेदस्थले तु द्वयोः तत्र आश्रये अपि च अधिकरणस्य तत्र प्रथमाविभक्ति परन्तु पृथक् तु स्थले तत्र आश्रयवाचकपदस्य तत्र प्रथमाविभक्ति अस्ति अवधिवाचकपदस्य पञ्चमी अस्ति इति पदार्थयोः भेदसाधकं क्वचित् उक्तम् तत्तु प्रक्रिया मात्रम् तत्तु प्रक्रिया मात्रमस्ति
अत्र वदति यदि प्राचीननैयायिकाः वदन्ति पश्यतु भेदस्थले घटः पटः न इति वाक्यं वाक्यप्रयोगः अस्ति प्रथमाविभक्तिः भवति प्रतियोगिनः अनुयोगिनः किन्तु पृथक्त्वस्थले घटः पटात् पृथक् तत्र यः आश्रयः पटः तस्य घटः आश्रयः तत्र प्रथमा अस्ति पटात् तत्र पञ्चमी अस्ति इति भेदे इति वाक्य द्वय प्रयोगद्वयेन भेदः भिन्नः पृथक्त्वमिति भिन्नः गुणः अस्ति इति क्वचित् उक्तम् इति कोऽपि वदति तथापि प्रक्रियामात्रम् इति प्रतिपक्षः वदति प्रतिपक्षी वदति
इत्युक्ते तत्र अर्थमपि भिन्नम् इति तु न वक्तुं शक्यते तत्र
इति यद्यपि भवान् वदति घटः पटात् पृथक् भवतः कथनस्य आशयः तु घटः पटात् भिन्नः तदेव
तदेव
विभक्तिभेदेन पृथक्त्वस्य गुणत्वं न साधयितुं शक्नोति
घटात् अन्यः पटः भिन्नः पटः इत्यादि प्रतियोगिनिर्वाहाय नैपद संव्यवहारे अव्यवहारे समव्यवहारे एवं तादृश विभक्तिनियमस्य उपयोगात्
नञ् पदं नकारः खलु घटात् अन्यः पटः घटः न पटः
न पटः
घटात् भिन्नः पटः इत्यादि प्रयोगस्य केवलं न पद यत्र न पद अस्ति तत्र केवलं विभक्तिभेदः इति नियमस्य उपयोगः अस्ति अर्थभेदो नास्ति
तदेव लिख सो विभक्तिनियमस्य एव तत्र उपयोगः न तु अर्थभेदस्य तेन अर्थभेदः जायते पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च पदभेदेन अर्थभेदः अपि जायते इति तु किमपि नास्ति अतः तत्र तस्य प्रयोजनं नास्ति अप्रयोजकत्वात्
नियामकत्वं नास्ति पदभेदेन अर्थभेदः अस्ति इति नियमो नास्ति प्रयोजकत्वं नियामकत्वम् इति
द्वितीया साकाङ्क्षत्वात् यदत्तेस्तु तदभावात् अत्र किं लिखितम्
अत्र किञ्चित् ब्रह्मात्मकम् इति भाति वस्तुतः सरलमस्ति ओवर् ओवर् काम्प्लिकेट् मास्तु कृ धातु अस्ति डुक्रङ् धातु अस्ति डुक्रङ् कृ धातु तस्य कृतिः अस्ति कृतिः यतते यत् धातुः तथा यत्नः अस्ति एकः वदति बालकः करोति बालकः यतते नैयायिकमते तयोः भेदः नास्ति अर्थं समानमस्ति बालकः करोति बालकः यतते किन्तु यत्र कृ धातोः प्रयोगः अस्ति तत्र कर्मपदम् आवश्यकम् सकर्मकधातुः अस्ति कृ धातुः द्वितीया साकाङ्क्षा अस्ति द्वितीया विभक्तिपदस्य साकाङ्क्षत्वम् इत्युक्ते अपेक्षत्वम् अपेक्षा अस्ति बालकः करोति किं करोति कृषिकं करोति किमपि करोति तत्र द्वितीयपदस्य साकाङ्क्षा अस्ति साकाङ्क्षत्वम् अस्ति आवश्यकता अस्ति प्रश्नः अस्ति मनसि किं करोति इति किन्तु यतते यत्र शृणुमः तत्र भवतु यतते प्रयत्नं करोति प्रयतते यतते तस्य अभावः अस्ति कस्य द्वितीया साकाङ्क्षपदस्य अभावः अस्ति अपेक्षायाः अभावः अकर्मकधातु अस्ति यत् धातुः खलु अग्रे पठतु आद्येन
कर्म सापेक्षकृते द्वितीयेन कर्मनिरपेक्ष अकृते कृते अर्थान्तरस्य वा बोधः इत्यस्य अपि स्वीकार आपत्तेः कर्म आद्ये इत्युक्ते क्रुञ्जा विषये कर्मसापेक्षकृते द्वितीयेन यत् इति यः तत् धातुः कर्म निरपेक्षकृते सापेक्ष अपि च निरपेक्ष कृञ्धातुविषये कर्मपदस्य अपेक्षा अस्ति परन्तु यत् धातुः विषये कर्मपदस्य अपेक्षा नास्ति अर्थान्तरस्य वा बोधः इत्यस्य अपि स्वीकार आपत्तेः इत्युक्ते तत्र यथा भवान् उक्तवान् तत्र ते वदन्ति तत्र अर्थभेदः नास्ति अर्थान्तरस्य वा बोधः यस्यापि स्वीकार आपत्तेः
आपत्तेः अस्वीकारः अस्वीकारः अस्ति स्वीकारापत्तिः अस्ति न स्वीकुर्मः अर्थान्तरः अस्ति अर्थान्तरः अस्ति तेन भो इति बोधः अस्ति इत्यस्य स्वीकारापत्तिः इति इत्युक्ते किं वदामः भेदः अस्ति इति कोऽपि वदति चेत् इति स्वीकारम् अस्माभिः करणीयं भवति किन्तु तथा नास्ति अर्थभेदः नास्ति एकत्र कर्मपदस्य प्रयोगः अस्ति अपरस्मिन् वाक्ये कर्मपदं नास्ति तथापि इति भेदः अस्ति इति अर्थान्तरः अस्ति इति स्वीकारापत्तिः भवति अस्माभिः स्वीकर्तव्यम् इति भवति केवलं वाक्यप्रयोगम्
इत्युक्ते तेषां विषये तु एतत् अनेन भेदः नास्ति ते भेदः
स्वीकुर्वन्ति तद् प्रयोगवाक्यप्रयोग किं व्याकरणभेदेन अर्थान्तरः अस्ति इति स्वीकारस्य आपत्तिः भवति यु हाव् टु एक्सेप्ट् तथा नास्ति व्याकरणभेदेन अर्थभेदः अस्ति इति तस्य उदाहरणमस्ति कृधातुः यद् धातुः इति उदाहरणमस्ति कस्य घटः पटौ न घटः पटात् पृथक् अथवा भिन्नः तत्र विभक्तिभेदः अस्ति तथापि अर्थं समानं तथा एव यथा कृधातोः बालकः करोति बालकः यतते करोति इति प्रयोगे किं करोति इति पाठं करोति गृहपाठं करोति इति कर्मपदस्य अपेक्षा अस्ति साकाङ्क्षा अस्ति किन्तु बालकः यतते तत्र द्वितीयविभक्तिपदस्य आवश्यकता नास्ति अपेक्षा नास्ति किन्तु अर्थभेदोपि नास्ति यथा तत्र अर्थं समान अर्थः समानः तथैव अत्र घटः पटो न इति प्रथमविभक्तिप्रयोगः घटः पटात् भिन्नः पृथक् इति पञ्चमी प्रयोगः तत्रापि अर्थभेदः नास्ति इति नैयायिकवादी साधयितुम् इच्छति समीचीनमस्ति इति इति परिच्छेदद्वयम् आक्षेपः एतावता आक्षेपः अस्माभिः दृष्टः खलु तर्हि कथम् अस्य समाधानं करिष्यति इति तत्र संयोगः इति गुणः अस्ति तद्गुणं स्वीकृत्य अग्रे साधयति एवं कुर्मः किञ्चित् अत्र अद्य डेन्स् आसीत् खलु परिचयद्वयं न वा
व्याकरणभेदेन अर्थभेदः अस्ति इति वा नास्ति इति वा
नास्ति कुत्रचित् अस्ति अत्र नास्ति अत्र केवलं विभक्तिभेदेन भेदः भिन्नः पृथक्त्वं भिन्नः इति भवान् न वक्तुं शक्नोति कः प्राचीननैयायिकः यः अस्ति सः न वक्तुं शक्नोति यत् पश्यतु भेदस्थले अन्योन्यभेदस्थले प्रथमविभक्तिप्रयोगं करोमि पृथक्तस्थले पञ्चमी प्रयोगं करोमि तेन पश्यतु न पृथक्त्वं भिन्नः गुणः अस्ति इति यदि तथा साधयितुमिच्छति नव्यनैयायिकः वदति तत् न स्वीकरोमि कथं केवलं व्याकरणविभक्तिभेदेन अर्थभेदः नास्ति यथा पश्यतु कृधातुः यद्धातुः तत्र प्रयोगः भिन्नः एकत्र कर्मपदस्य आवश्यकता अस्ति अपरत्र कर्मपदस्य आवश्यकता नास्ति तथापि अर्थः समानः यथा तत्र अत्रापि तथा पञ्चमी प्रथमा इति विभक्ति प्रयोगस्य भेदेन पृथक्त्वमिति विशिष्टगुणः अस्ति इति न स्वीकरोमि इति नव्यनैयायिकः वदति साधु स्पष्टमस्ति वा एवं कुर्मः आगामिवर्गे पुनः पठामः तर्हि किम् उपस्थापनं न कुर्मः पुनः पठित्वा स्पष्टता साधयामः साधु अथवा स्पष्टम् अस्ति चेत् कोऽपि कर्तुम् इच्छति चेत् करोतु नो चेत् पुनः पठिष्यामः यथा भवन्तः इच्छन्ति किं प्रश्नमस्ति वा?
अन्तिमपरिचये क्लेशः अस्ति.
अस्तु, किञ्चित् भिन्नशैल्या लिखितमस्ति, नैयायिकशैल्या. वस्तुतः सरलमेव अस्ति, सरलः एव अस्ति.
प्रश्नमस्ति महोदय, प्रश्नमस्ति. अत्र तदेव रैटर् टेक्स् व्यू आफ् डिफ्रेण्ट् प्राचीन अण्ड् नव्य, देट् इफ् यु डोण्ट् नो विल् बि कन्फ्यूस्. नव्य
सः न वदति, समीचीनं, सः न वदति इति.
वै ईस् रैटिङ्ग् वन् वन् टैप् अण्ड् वै ईस् रैटिङ्ग् अनदर् टैप् वन् टैम् केनाट् नो
डोण्ट्
नोयिङ्ग् द बेक्ग्रौण्ड्.
तदेव तदेव इदानीम् अपरं पक्षं स्वीकरोमि इति न सः न साक्षात् न वदति, अस्माभिः अवगन्तव्यो अवगन्तव्यमस्ति इति. अत्र परिच्छेदद्वयं भिन्न भिन्नमतम् इति, अपरं मतं स्वीकृत्य साधय वदति, अनन्तरम् अस्य निरासः करोति. साधु साधु अस्ति. अस्तु, तर्हि आगामिवर्गे मेलिष्यामः. तावत् धन्यवादः, नमस्काराः.
महोदय, भवान् एकं करपत्रं प्रेषितवान्, तस्य विषयः तु संयोगः अस्ति, तत्र पृथक्त्वस्य विषये किमपि नास्ति. पृथक्त्वस्यापि कोऽपि करपत्रमस्ति वा?
न, तत्संयोगमुपयुज्य पृथक्त्वं साधयति साधयिष्यति. अत्र वस्तुतः अस्मिन् एषः विषयः यथा अस्माभिः प्रथमवारं पठितः, तत्र अस्माकं वर्गे अपि भ्रमः जातः सर्वेषां, किम् अस्ति अत्र, कथं वदति. अन्तिमे मया एव चिन्तितम् अपि च तेन साधितं, तत्र किम् अस्ति. एवं कुर्मः, न वदामि येन सस्पेन्स् भङ्गः भवति. भवन्तः स्वचिन्तनं कुर्वन्तु. अस्य भेदः पृथक्तं, तयोः कः भेदः? न समानः. पृथक्तम् इति भिन्नः गुणः आवश्यकः, कथमिति भवन्तः स्वचिन्तनं कुर्वन्तु, करपत्रेण सर्वं स्पष्टं भविष्यति. साधु, आगामिवर्गे अहं वदामि किं किम् अस्ति इति, कथम् अस्ति इति. अस्तु, धन्यवादः, नमस्काराः.
धन्यवादः महोदय, नमस्कारः.